अथ सप्तदशोऽध्याय अर्जुन उवाच ये शास्त्र विधिमुत्सृज्य यजन्ते श्रद्धयान्विता ते संनिष्ठा तु का कृष्णा सत्त्वमाहुरजस्तम श्रीभगवानुवाच त्रिविधा भवति श्रद्धा देहिनां साश्वभावया सात्विकी राजसी चैव तामसी चेति तां शृणु सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव स यजन्ते सात्विका देवान् यक्ष रक्षांसि राजसा प्रीतान् भूतगणांश्चान्ये यजन्ते तामसायन अशास्त्रविहितं घोरं तप्पन्ते ये तपोयना दम्बाहङ्कारसंयुक्ता कामरागबलान्विता कर्षयन्तः शरीरस्थं भूतग्राममचेतस मञ्चैवान्तः शरीरस्थं तन् विद्यासुरनिश्चयन् आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रिया जग्गास्तपस्तथा दानं तेषां भेदमिमं शृणु आयुष्यत्य बलारोग्य सुखप्रीतिविवर्धना रस्या स्निग्धा स्थिरा हृद्या आहार सात्विका प्रिया कट्टं लवणातुष्णं तीक्ष्णा रुक्ष विदाहिना आहारा राजसश्रेष्ठा दुःखशोकामयप्रदा जातयामं गतरसं पूतिपर्जूषितं च जात उच्छिष्टमपि चामिद्धं भोजनं तामसप्रियम् अफलाकाङ्क्षिभिर्यज्ञो विधिदिष्टो यैज्यते यश्च वामेवेति मनः समाधाय सात्विक अभिसन्धाय तु फलम् दम्भार्थमपि चैव याद् इज्यते भरतश्रेष्ठ तं यज्ञं विद्धिराजसं विधिहीनमशिष्टान्नं मन्त्रहीनमदक्षिणं श्रद्धाविरहितं यज्ञं तामसं परिचक्ष्यते देवद्विजगुरुप्राज्ञ पूजनं शौचमार्जवम् ब्रह्मचर्य महिंसा च शारीरं तप उच्यते अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च जात् साध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते मनःप्रसादस्यौम्यत्यं मौनमात्मविनिग्रह भावसंशुद्धिरित्येतात् तपोमानसमुच्यते श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः अफलाकाङ्क्षिभिर्युक्तैः सात्विकं परिचक्ष्यते सत्कारमानपूजार्थं तपोदम्भेन चैव जात् क्रियते तदिह प्रोक्तं राजसं चलमध्रुवं मूढग्राहेणात्मनो यत् पीरया क्रियते तप परश्रूत् साधनार्थं वा तत्तामसमुदाहृतं जातव्यमिति यद्दानं दीयते नुपकारिणे देशे काले च पात्रे च तद्दानं सात्विकं स्मृतं जत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुरा दीयते च परिकृष्टं तद्दानं राजसं स्मृतम् अदेशकाले यद्यानमपात्रेभ्यश्च दीयते असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॐ तत्सदिति निर्देशो ब्रह्मणस्ति विधस्मृत ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा तस्मादोमित्युदाहृत्य यज्ञदानात्तपक्रिया प्रवर्तन्ति विधानोक्ता सततं ब्रह्मवादिनम्। तदित्य नभिसन्धाय फलंग यज्ञ तपक्रिया दानक्रियाश्च विविधा क्रियन्ते मोक्षकांक्षी सद्भावे साधुभावे च सदित्ते तत्प्रयुज्यते प्रशस्ते कर्मणि तथा सच्छब्द पार्थयुज्यते यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते कर्म चैव तदर्थीयं सदित्ते वा विधीयते अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च जात असदित्युच्यते पार्थ न च तात् प्रीतनूय तत्सत् इति श्रीमहाभारते शतसाहस्र्यं संहितायं वैयाशिक्यं भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः।